शबर शुक्र कथा आदितृष्णा न कर्तव्या तृष्णा नैव परित्यजेत् आदितृष्णाभिभूतस्य शिक्षा भवति मस्तके। अस्ति कस्मिंश्चित् वनोद्देशे कश्चित् पुलिन्दः, स च पापर्धिं कर्तुं वनं प्रति प्रस्थितः। अथ तेन प्रसर्पता महान् अञ्जनपर्वतशिखरा कालः क्रोडः समासादितः। तं दृष्ट्वा असौ कर्णान्ताकृष्टनिशितसायकेन समाहतः। तेनापि कोपाविष्टचेतसा बलेन्दुद्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिन्दो गतासुर्भूतले पतत्। अथ लुब्धकं व्यापाद्य शुकरोऽपि शरप्रहारवेदनया पञ्चतं गतः। एतस्मिन्नन्तरे कश्चिद् आसन्नमृत्युः शृगाल इतस्ततो निराहारतया पीडितः परिभ्रमंस्तं प्रदेशम् आजगाम। यवद्वराः पुलिन्दौ द्वावपि पश्यति तवत्प्रहृष्टो व्यचिन्तयत्, भोः सानुकूलो मे विद्धिः। तेनैतदप्यचिन्तितं भोजनम् उपस्थितं, तदहं तथा भक्षयामि यथा बहुन्यहानि मे प्राणयात्रा भवति। तत्तवदेनं स्नायुपाशं धनुष्कोटिगतं भक्षयामि। इत्येवं मनसा निश्चित्य चापघटितकोटिमुखमध्ये प्रक्षिप्य स्नायुं भक्षितुं प्रवृत्तः। ततश्च त्रुटिते पार्श्वे तालुदेशं विदार्य चापकोटिर्मस्तकमधीन शिखावन्निष्कान्ता, सोऽपि तद्वेदनया तत्क्षणान्मृतः।